एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। नेकपा माओवादी केन्द्रस्य अष्टम महाधिवेशनस्य अन्तर्गतेन सञ्चल्यमानेन अन्तरसत्रेण विधान प्रारूपम् पारितीकृतम् वर्तते। अन्तरसत्रे विधान प्रारूपस्य प्रस्तोत्रा स्थायी समितेः सदस्येन देवगुरूङ इत्यनेन प्रारूपम् अधिकृत्य उत्थापितानाम् प्रश्नानाम् उत्तरप्रदानम् अनु यो विधान प्रारूपमिदम् सर्वसम्मत्या पारितीकृतमस्ति। उत्तरप्रदानस्य क्रमे नेत्रा गुरूङ इत्यनेन विधानाय आगामिन्या केन्द्रीय समित्या अन्तिमरूप प्रदानत्वेन प्रारूपम् पारितीकर्तुम् अनुरूद्धम् आसीत्। विधानस्य अनुसारेण अतः परम् दलस्य केन्द्रीय समितिः 50% स्वतन्त्र पक्षः 50% पूर्ण समानुपातिक पक्षश्चेति कृत्वा मिश्रित निर्वाचन प्रणाल्याः माध्यमेन प्रचेष्यते। नेकपा माओवादी केन्द्रस्य केन्द्रीय समितिः 69-102 सदस्यीया भविष्यति। सञ्चल्यमानेन महाधिवेशनेन केन्द्रीय समितिः केन्द्रीय समित्या पोलिट ब्यूरो निकायः स्थायी समितिः पदाधिकारिणश्च चेष्यन्ते। अत्रान्तरे नेकपा माओवादी केन्द्रस्य अष्टम महाधिवेशनस्य अन्तर्गतम् गतदिनाय निर्धारितः निर्वाचन कार्यक्रमः अद्य दिवायावत् स्थगितीकृतो वर्तते। माओवादी केन्द्रस्य निर्वाचनायोगस्य अध्यक्षः विष्णुपुकार श्रेष्ठः अद्य दिवा एकवादनम् यावत् निर्वाचन कार्यक्रमः स्थगितीकृतो स्थिति अज्ञापयत्। केन्द्रीय सदस्यानाम् कृते सहमतेः धरणार्थम् नेतृभिः समयः अभियाचितः, तदनु निर्वाचन कार्यक्रमः अद्य दिवा यावत् स्थगितीकृतः इति असौ अगदत्। असौ अद्य एकवादनम् यावत् सहमतौ न धृतायाम् सत्याम् द्विवादनात् प्रत्याशिनाम् मनोनयन पञ्जीकरणत्वेन निर्वाचन कार्यतालिका संशोधिता स्थिति ज्ञापितवान्। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विधेन केन्द्रीय कार्य समितौ 10 जना केन्द्रीय सदस्येष् मनोनीता सन्ति। नेपाली कांग्रेस दलस्य विधानस्य अनुसारेण सभापतिना देउवा विधेन केन्द्रीय सदस्येष् रामचन्द्र पौडेल, प्रकाशमान सिंह, विमलेन्द्र निधि, विजय कुमार गच्छदार, कृष्णप्रसाद छिटौला, डाक्टर प्रकाशरण महत, डाक्टर नारायण खड्का, उमा रेग्मी, सुजाता कोइराला, मीनबहादुर विश्वकर्मा च मनोनीता सन्तीति नेपाली कांग्रेस दलस्य मुख्य सचिवेन कृष्णप्रसाद पौडेलेन प्रकाशितायाम् विज्ञप्तौ उल्लिखितमस्ति। प्रधानमन्त्री शेरबहादुर देउवा निगदति राज्यस्य प्रत्येकं निकाय स्तरेषु संरचनासु च महिलानाम् अधिकारस्य सुनिश्चितता वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्यया डीला संगरोला विधेया लिखितं नेपालीका सपना अधुरै इति नामकं पुस्तकं यो विमोचन प्रधानमन्त्री देउवा अवदत् महिलाभ्य आरक्षणाधिकार प्रदायक नेपाल विशेष देशो वर्तते। नेपाली कांग्रेस दलस्य सभापतिश्च देउवा महिलानाम् अधिकार सहभागितयो प्रश्ने सर्वकार राजनीतिक दलानि च गभीराणि सन्तीति अवदत्। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की कथयति सर्वकार संचारस्य अभिव्यक्तेः स्वतन्त्रतायाश्च पक्षे वर्तते। अनलाइन पत्रकार संघस्य एकादशीं वार्षिक साधारण सभाम् ह्यः काष्ठमण्डपे उद्घाटयन् मन्त्री कार्की अवदत् संचार क्षेत्रस्य मुख्य कार्यम् जनमत निर्माणम् अस्ति, इत्यतः वैद्युत संचार माध्यमस्य भूमिका महत्वपूर्ण भवति। सर्वकारस्य प्रवक्ता च मन्त्री कार्की वैद्युत संचार माध्यमेभ्यः अपि अन्य संचार माध्यमेभ्यः इव लोककल्याणकारि विज्ञापनम् प्रदातुम् सर्वकारः प्रतिबद्धोऽस्तीति अवदत्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः एमसीसी परियोजना राष्ट्रघातिनी अस्थिति वितर्क्य कतिचित् व्यक्तिभिः भ्रमं स्रष्टुम् अपेक्षितमिति कथयति। ह्यः तनौ जनपदस्य खैरेनीटारस्थाने आयोजिते कार्यक्रमे वरिष्ठ नेता पौडेलः वामदलानां कतिचिन् नेतृणां भ्रमस्य कारणेन अवरुद्धाम् इमां परियोजनां पारितीकृत्य राष्ट्रस्य विकासः कर्तव्यः इति धारणां व्यक्तवान्। कार्यक्रमे नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य शंकर भण्डारी अवदत् निर्वाचने शिष्टान् समूहान् उपसमूहान् च निराकृत्य दलस्य एकतायाः सन्देशः प्रदातव्यः। नेकपा एकीकृत समाजवादी दलस्य अध्यक्षः माधव कुमार नेपालः देशस्य कृते दायित्ववाहितया कार्यं विधातुं प्रतिबद्धतां व्यनक्ति। तनहु जनपदस्य भानु नगरपालिकायाः तृतीय वडा क्षेत्रे ह्यः आयोजितं कार्यक्रमं सम्बोधयन् अध्यक्षो नेपालः अगदत् एकीकृत समाजवादी दलस्य संगठनेन युव महिला आदिवासी जनजाति जनाः उत्साहिताः सन्ति। कार्यक्रमे श्रमवृत्ति सामाजिक सुरक्षा मन्त्री कृष्ण कुमार श्रेष्ठः तनहु क्षेत्रस्य विकासाय वित्तं विनियोग क्षेत्रे इति प्रतिबद्धतां व्यक्तवान्। नेकपा एमाले दलस्य महासचिव शंकर पोखरेल एमाले दलस्य विरूद्ध चतुरश्रम परिवेष्टनम विहितमिति आरोपयति। वाके जनपदीयेन नेकपा एमाले दलेन ह्यो नरैनापुर ग्रामपालिकायाम् आयोजिते कार्यक्रमे महासचिव पोखरेल एमाले दलेन देश जनता परिवर्तनानां पक्षे कार्येषु विहितेषु चतुरश्रम आक्रमणम् विधाय एमाले दलम् रोद्धुम् घटबन्धनम् परिवेष्टनम् च विहिते स्तः इति आरोपयत्। महासचिव पोखरेल अन्य दलैः एकाकिना एमाले दलस्य विरूद्ध निर्वाचनस्य अवस्थायाः अभावात् एमाले दलस्य विरूद्ध घटबन्धनम् विहितमिति न्यस्चिनोत्। जसपा नाम्नो जनता समाजवादी दल नेपालस्य अध्यक्ष उपेन्द्र यादव भाषते दलित समुदायस्य आर्थिक सामाजिक राजनीतिक रूपेण सशक्तम् असम्पादनम् यावत् राष्ट्रिय विपन्नताम् निवारयितुम् काठिन्यम् भवति। दलस्य समाजवादी दलित मुक्ति संगठन नेपालस्य राष्ट्रिय मेलाम् ह्यो जनकपुर धाम्नि उद्घाटयन् अध्यक्षो यादव अवासत मधेशान्दोलनम् कश्चित् व्यक्तिभ्यो मन्त्रिणः सम्पादनस्य अपेक्षयापि सर्वविधान विभेदान समाप्य समतामूलक समाजस्य निर्माणाय आसीत्। विज्ञान प्रविधेः क्षेत्रे क्रियाशीलम् काष्ठमण्डपस्थम् राष्ट्रियाविष्कार केन्द्रम् ऐषम वर्षस्य श्रीपति समाजसेवा पुरस्कारेण पुरस्कृतम् वर्तते। पुरस्कारस्य राशौ द्वाविंशति सहस्राधिक लक्षद्वयम् रूप्यकाणि सन्ति। पोखरा महानगरपालिकायाः नवमवडाक्षेत्रवर्तिनी महेन्द्रपुरस्थाने विद्यमानया श्रीपति कोरेला गुटी संस्थया स्थापितः पुरस्कारोऽसौ संस्थायाः 29 वार्षिकी साधारण सभायाः अवसरे यः केन्द्रस्य प्रमुखाय महावीर पुन इत्यस्मै हस्तान्तरितो वर्तते। नेपाल प्रज्ञा प्रतिष्ठानस्य उपकुलपतिः प्राध्यापकः डाक्टर जगमान गुरूङ पुरस्कारममुम् प्रादात्। संचार सूचना प्रविधि मन्त्रालयस्य सचिवः डाक्टर वैकुण्ठ अर्यालः कथयति कर्णाली क्षेत्रस्य तथ्यपूर्ण समाचारेण नीति निर्माणाय साहाय्यं मिलति। काष्ठमण्डपस्थेन तुलसीदेवी हरिहर प्रतिष्ठानेन यः आयोजिते कर्णाली प्रदेशस्य क्रियाशील पत्रकाराणां कृते आचार संहिता प्रशिक्षणम् इति विषयके श्रव्यदृश्य कार्यक्रमे असौ एवम् अकथयत्।